नमः सर्वेभ्यः। अद्य प्रौढमनोरमायां परिभाषा प्रकरणे प्रथमः पाठः डिसेम्बर् मासस्य 28 दिनाङ्कः। परिभाषा प्रकरणं सिद्धान्तकौमुद्यां द्वितीयं प्रकरणम्। प्रथमं तावत् संज्ञाप्रकरणं, यत्र कासाञ्चन प्रमुखसंज्ञानां विधायकसूत्राणि व्याख्यातानि दीक्षितैः, प्रसङ्गवशात् अन्यान्यपि सूत्राणि पूर्वत्रासिद्धम् इत्यादीन्यपि व्याख्यातानि। इदानीं परिभाषाप्रकरणम्। का नाम परिभाषा? वाट् इस् अ परिभाषा? अनियमे नियमकारिणी परिभाषा इति लक्षणम्। सो परिभाषा इज वन दट एस्टाब्लिशेस अ रूल वेर देर इज नो रूल, दट इज देर इज नथिंग। से फॉर एग्जाम्पल, लुंग लंग रंग षडुदात्तः इत्युच्यते। लुंग लकारे लंग लकारे लिंग लकारे च अट् इति आगमः विधीयते धातोः। So we have an agama called at. Agama is something to be added. So there is an agama at which occurs in lung, lung and lung lakara. So now where should we add this? At is akara agama. So should we add this before the dhatu, after the dhatu, before the lakara, after the lakara? There is no niyama. Niyamaha nasti. Tatra adhyantau takitau iti paribhasha upayajyate. किमुच्यते परिभाषया? टकितौ, टित्कितौ, यस्य उक्तौ तस्य क्रमात् आद्यन्तावयवौ स्तः। टित् अत्र अट् इति टित् आगमः, यस्य उक्तं धातोः उक्तः, तस्य आद्यवयवः अतः अभवत् अभूत् इत्यत्र धातोः आदौ अट् इति आगमः क्रियते। सो अनियमे नियमकारिणी परिभाषा। परिभाषा इस् वन् दट् एस्टाब्लिशेस् रूल् वेर् दर् इस् नन्। सो दिस् इस् बेसिकली द रूल् फार् इण्टर्प्रिटिङ्ग् द रूल्स्। विधिसूत्राणाम् अर्थकरणे परिभाषाणां प्रयोजनम्। टु एक्स्ट्राक्ट् द रैट् मीनिङ्ग् औट् आफ् विधिसूत्रस् वि रिक्वैर् परिभाषा। दट् इस् वै वि काल् इट् आस् द इण्टर्प्रेटिव् रूल्स्, द मेटा रूल्स्। सो संज्ञा अण्ड् परिभाषा, दे डु नाट् हाव् एन् इण्डिपेण्डेण्ट् एक्सिस्टेन्स्। ओके, बोत् वि सा दट् पारार्थ्यनिर्णयात् संज्ञायाः। Samnya is always for parartha, for the vidhi. I mean, there is no point in just naming something. You use it somewhere and that is when it gets its meaning. Similarly with paribhasha, samnya paribhasha, ubhayoho api parartyameva, vidhisutyarthatvameva. So they are always meant for an interpretation of the vidhi sutra and they are subservient to the vidhi sutras. Okay. So atra paribhasha इत्युक्ते परिभाषा सूत्राणि सन्ति, पाणिनिना अष्टाध्याय्यामेव तत्र तत्र सूत्राणि कृतानि, तथैव अन्याः अपि परिभाषाः सन्ति। देर् आर् आल्सो अदर् रूल्स्। सो परिभाषा इस् जस्ट् अ रूल् एस् वि सेड्, अनियमे नियमकारिणी। सो पाणिनिना नोक्तानि साक्षात्, तथापि भाष्यकृताङ्गीकृतानि अथवा शास्त्रे अङ्गीकृतानि सन्ति। सो दोस् आर् काल्ड् एस् अ परिभाषा, सपरेट् परिभाषा। वी हेव् अ सपरेट् टेक्स्ट् फार् इट् काल्ड् द परिभाषेन्दु शेखर। ऐ मीन् देर् आर् मेनी टेक्स्ट् which deal with paribhashas. One of those is the paribhasha in Shekhara by Nagesh Bhatta. So they deal with such paribhasha, I mean not directly the sutras, not the paribhasha sutras, but other paribhashas which are used in Vyakarana and all that. So now let's come to the paribhasha prakarana of the Siddhanta Kaumudi, wherein Dikshita brings together a few of the important paribhasha sutras which are useful in general throughout Vyakarana. तत्र प्रथमं सूत्रमस्ति इको गुणवृद्धि इति। अष्टाध्याय्याः प्रथमाध्यायस्य प्रथमपादे तृतीयमिदं सूत्रम्, इको गुणवृद्धि। कोऽर्थः? वट् इस् द मीनिङ्ग् आफ् दिस् सूत्र? केन् समबडि रिकलेक्ट् द सूत्रार्थ?
हलो,
हा
वदामि वा?
उच्यताम्
हा इको गुणवृद्धि इति सूत्रं द्विपदात्मकम् इकः इति षष्ठ्यन्तानुकरणम् इत्युक्ते इकः इकसि इकांसि इति शब्दरूपाणि भवन्ति तस्य षष्ठ्यन्तानुकरणं भवति यस्मिन् सूत्रे गुणशब्दमुच्चार्य गुणविधानं भवति यस्मिन् सूत्रे वृद्धिशब्दमुच्चार्य वृद्धिविधानं भवति तर्हि तत्र इकः इति षष्ठ्यन्तं पदम् उपतिष्ठते इति सूत्रस्य आशयः
धन्यवादः तदेव गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धि विधीयते तत्र इकः इति षष्ठ्यन्तं पदम् उपतिष्ठते इति सूत्रार्थः सो द प्लेन् मीनिङ्ग् विच् वी अण्डर्स्टाण्ड् द सिम्पल् मीनिङ्ग् इस् दट् वृद्धि आर् गुण रिप्लेसस् इक् सो बट् हौ एक्साक्ट्ली इस् द वर्डिङ्ग् फ्रेस्ड् ओके सूत्रार्थः कथं किमर्थम् एवं रीत्या लिखितः तथा नोच्यते दीक्षते हि गुणवृद्धि इकः स्थाने भवतः इति नोक्तम् right so he does not say phrase the sutra that way kimartham kimuktam kaumudyam guna vruddhi shabdabhyam yatra guna vruddhi vidhiyete tatra ikaha iti shashtyantam padam upatishtate so where there is a vidhana of guna or vruddhi by the words guna or vruddhi guna iti uchcharya yatra gunah vidhiyate vruddhi iti uchcharya yatra vruddhi vidhiyate अर्थात् सूत्रे फॉर दिस परिभाषा टू ऑपरेट द सूत्र द विधि सूत्र शुड कैरी द वर्ड्स गुणः और वृद्धि गुणः भवति अथवा वृद्धिः भवति इत्येव विधानं स्यात् तत्र इकः इति षष्ठ्यन्तं पदम् उपतिष्ठते सो देयर टू द सूत्र टू द वर्ड्स ऑफ द सूत्र वी एड द वर्ड इकः सो व्हाट डस दिस मीन मिदेर गुणः इति सूत्रमस्ति मिदेः मिद् इति धातुः तस्य गुणः भवति सार्वधातुक अर्धधातुकयोः परयोः इति सार्वधातुक अर्धधातुक इति अग्रे भवति मिदेरङ्गस्य इकः गुणः स्यात् इति उच्यते मिदेः गुणः इत्यस्ति सो मिद् विल् हाव् गुण कस्य गुणः भवति मिद् इत्यत्र मकारः अस्ति इकारः अस्ति दकारः अस्ति त्रयः वर्णाः सन्ति तत्र कस्य गुणः इति अनियमः अनियमे नियमकारिणी परिभाषा इत्युक्तत्वात् नियमः विधीयते इकः भवति यत्र गुणः इत्युच्चार्य सो इट् सेस् गुण सो वेन् देर् इस् गुण बीङ्ग् टोल्ड् बै द वर्ड् गुण इकः इति षष्ठ्यन्तं पदम् उपतिष्ठते सो वि एड् द वर्ड् इकः इन् सूत्रार्थ सो अङ्गस्य अत्यधिकारः सो मिदेरङ्गस्य इकः गुणः भवति सो द इक् लेटर् विच् इस् अ पार्ट् आफ् मिद् विल् गेट् गुण सो मिद् इत्यत्र इकारः इक् प्रत्याहारे अन्तर्भवति अतः इकारस्य गुणः आन्तरतम्यात् एकारः अदेङ्गुणः इत्यनेन अकार एकार ओकाराणां गुणसंज्ञा विद्यते तत्र आन्तरतम्यात् एकारः गुणः मेद्यति इति रूपं सिद्ध्यति Similarly, मृजेर् वृद्धिः इति सूत्रमस्ति सो मृज् इति धातोः वृद्धिः भवति कस्य वर्णस्य भवति इकः भवति सो अगेन् इसे द इक् लेटर् आफ् मृज् विल् गेट् वृद्धि तेन मृज् इत्यस्ति ऋकारस्य वृद्धिः नाम आकारः ओके उरण्परः इत्यनेन रेफपरः वृद्धि फार् ऋकार इस् ऐ औ इत्यस्ति तत्र आकारः वृद्धिः भवति उरण् रपरः ऋकारस्य स्थाने विधीयमानः अण् रेफपरः भवति रपरः भवति इत्युक्तत्वात् आर् सो मार्ज् इति भवति अग्रे मार्ष्टि इति रूपं सिद्ध्यति सो दीस् टु आर् एक्साम्पल्स् आफ् आपरेशन् आफ् द परिभाषा गुणवृद्धिशब्दाभ्यां मिदेर्गुणः इत्यत्र गुणमुच्चार्य मृजेर्वृद्धिः इत्यत्र वृद्धिः इति उच्चार्य यत्र गुणवृद्धि विधीयते अस्मिन् सूत्रे गुणः विधीयते अत्र वृद्धिः तत्र इकः इति षष्ठ्यन्तं पदम् उपतिष्ठते सो वि एड् द वर्ड् इकः इको गुणः इकः इति षष्ठ्यन्तं पदं द षष्ठी विभक्ति आफ् इक् इस् इकः सो वि एड् आन् द वर्ड् इकः सो मिदेः अङ्गस्येत्यधिकारः इकः गुणः स्याद् इति सूत्रार्थः एवं मृदेः अङ्गस्य इकः वृद्धिः इति सूत्रार्थः Right? So this is an example of operation of iko guna vruddhi. Tadupari idanim manoramayam vyakhyatam guna vruddhi shabdabhyam iti. सो गुणवृद्धि शब्दाभ्याम यत्र गुणवृद्धि विधीयते इत्युच्यते तत् कथम्? हाउ डू वी हैव दिस? बिकॉज द सूत्र जस्ट सेज इकः गुणवृद्धि, गुणवृद्धि इकः इत्येव अस्ति. सो द सूत्रार्थ कैरीज द वर्ड गुणवृद्धि ट्वाइस. गुणवृद्धि शब्दाभ्याम गुणवृद्धि विधीयते तत् कथम्? सो हाउ डू यू गेट सच्च सूत्रार्थ? एतच्च पूर्व सूत्राभ्याम गुणवृद्धि पदे अनुवर्त्य गुणो वृद्धिरिति ये गुणवृद्धि इति योजनया लभ्यते. पूर्व सूत्राभ्याम बै द टू अर्लियर सूत्रस्, द थर्ड सूत्र ऑफ द फर्स्ट पाद. प्रथमं सूत्रं किम्, द्वितीयं सूत्रं किम्? प्रथमाध्यायस्य प्रथमपादस्य प्रथमं सूत्रं किम्, द्वितीयं च सूत्रं किम्? वृद्धिरादैच् अदेन गुणः इको गुणवृद्धि इति सूत्रक्रमः. वृद्धिरादैच् इत्येव आरभ्यते अष्टाध्यायी. सो वृद्धिरादैच् अदेन गुणः इको गुणवृद्धि. अतः पूर्वसूत्राभ्याम् अर्थात् वृद्धिरादैच् इति सूत्रात् अदेन गुणः इति च सूत्रात् गुणवृद्धि पदे अनुवर्त्य, वि टेक् वृद्धिः एज द अनुवृत्ति एण्ड् गुणः एज द अनुवृत्ति. सो गुणवृद्धि पदे अनुवर्त्य गुणो वृद्धिरिति ये गुणवृद्धि इति योजनया लभ्यते. सो नौ वी हाव इको गुणवृद्धि, बै अनुवृत्ति वी हाव गुणः वृद्धिः. सो हौ डू वी रिलेट इट्? गुणो वृद्धिः इति ये गुणवृद्धि, गुणः इति वृद्धिः इति, तदेव गुणवृद्धि शब्दाभ्याम इति उक्तम्. सो योजनया लभ्यते. दट इज हौ वी गेट द रिपीट ऑफ गुणवृद्धि. वै डू वी नीड इट? वै डोंट वी जस्ट से यत्र गुणः वृद्धिः तत्र इकः इति षष्ठ्यन्तं पदम् उपतिष्ठते. तेन इह न दिव औत् द्यौः. दिव औत् इति सूत्रम्. दिवः अङ्गस्य औकारः, औत् नाम औकारादेशः स्यात्. कस्य आदेशः भवति? औकारः वृद्धिसंज्ञकः. सो दिवः अङ्गस्य औकारादेशः इत्युक्ते औ इस् वृद्धि, वृद्धिरादै इत्यनेन औकारस्य वृद्धिसंज्ञा अस्ति. अतः इकः भवति वा? सो शुड् वी से the since it is vriddhi, even though the sutra does not say vriddhi, aukara is vriddhi, right? Vriddhi samyakah. Ataha atra diva ityatra ikarasya vriddhir bhavatu iti ashanka, right? So that is why they say guna vriddhi shabda abhyam yatra vriddhihi iti uktva yatra vriddhihi vidhiyate. So where the sutra states that there will be vriddhi, like in vrijer vriddhihi, sichi vriddhihi ityadi, यत्र वृद्धिशब्दम् उपयुज्य वृद्धिविधानम् क्रियते तत्रैव अस्याः परिभाषायाः प्रवृत्तिः. यत्र साक्षात् वृद्धिसंज्ञकः कश्चित् वर्णः विधीयते, इफ् देर् इस् डिरेक्ट् आदेश आफ् आ ऐ आर् औ विथौट् स्टेटिङ्ग् इट् एस् वृद्धि, देन् वी विल् नाट् आपरेट् दिस् परिभाषा. दट् इस् वै दट् टर्म् गुणवृद्धिशब्दाभ्याम् यत्र गुणवृद्धि विधीयते. अतः अत्र यद्यपि औकारः वृद्धिसंज्ञकः तथापि वृद्धिः इति न विहितः, अतः इयं परिभाषा न प्रवर्तते. अलोन्त्यस्य इत्यनेन अन्तादेशः औकारः. प्रक्रिया आफ् द्यौः, दिव् इति प्रातिपदिकात् सुप्रत्ययः, दिव औत् इत्यनेन वकारस्य स्थाने औकारः. अप्लै अलोन्त्यस्य, सो इट् विल् बी द फैनल् लेटर्. दि औस् इत्यस्ति. इको यणचि इत्यनेन यणादेशे द्यौस्, ऋत्वे विसर्गे च द्यौः इति रूपम्. Okay, so if in the absence of that, in the absence of anuvritti of gunaha vriddhihi and adding it on to the sutrartha, even here the vriddhi would have had to replace, that is the aukara would have had to replace the ikara and not the vakara. The intended sthani is vakara, not ikara, right? So tena ihana diva aut dyauho tadadina maha saha imam. त्यदादीनाम् अह, त्यदादयः सर्वनामसु अन्तर्गणः, त्यद् तद् यद् एतद् इदम् अदसेकद्वि इति अष्टौ त्यदादयः, तेषाम् अकारः आदेशः भवति विभक्तौ इति सूत्रार्थः. सो दिस् अकार इस् अ गुण, रैट्? गुण लेटर्. अदेन गुणः इत्यनेन अकारस्य गुणसंज्ञा अस्ति. तर्हि कुत्र भवेत् इति चेत् there is some problem with the colors here. So the tadanida maha is the mula. The mula is tadanida maha sahaimam. This the second line should not be in red. It is my words. So tadanida mangasya akaradesha vidhiyate. So yadyapi akaraha guna samyakaha. Even though akara is guna, tathapi guna shabdena navihitaha. Guna bhavati iti noktam, akaraha bhavati iti sakshaduktam. Ataha yam paribhasha na pravartate. Tatrapi alontyasya etyanena antadesha akaraha. Kim udaharanam saha imam. Can somebody give the prakriya for saha? Saha ityasya nishpatihi katham? Tad iti pratipadikat supratyayah kriyate tadadinam aha alontyasya etyanena antyasya dakarasya adeshah akaraha ta a s atogune etyanena pararupe ta s tasti tadosasavanam tayoh etyanena takarasya sthane sakaraha takara dakarasya sthane sakara adeshah sa sa s Rutre visarge saha iti rupam. So atra asyaha paribhashayaha pravrittihi nasti. So hi gunasya vidhanam na sakshad akarasya vidhanam. Okay. So similarly he gives imam as the second example. So why does he go to the second example? Tadu ityasya igdvarnaha nasti. So even assuming that when you give an example, it should be perfect, right? So here, there is no ik, even if you operate the paribhasha. Ik varnaha nasti, right? Iko guna vriddhi iti paribhashayaha pravrittavapi. Atra ik varnaha nasti. Nasti ityataha eva, asyaha paribhashayaha pravrittihi nasti, antyasya dakarasya kriyate iti yadi uchyate. Tarhi, yatra ik varnaha drishyate, tadudaharanam darshayandi rikshitaha. The only reason why Dikshitar goes for a second example anywhere, the same is the case through the Kaumudi and the Manorama. If he takes up a second example, there is something with the first. Why the first example would not be very convincing. Okay, so that is the only reason he goes in for a second example. So ataeva yatra igvarnaha asti tadrasham udaharanam prayachati idam shabdaha. Idam shabdat am pratyaha kriyate dvitiya vibhakto ekavachane. Atra यदि इको गुण वृद्धि इति परिभाषायाः प्रवृत्तिः तर्हि इकारस्य स्थाने स्यात् अकारः सो इफ वी ऑपरेट इको गुण वृद्धि हियर द अकार वुड हैव टू रिप्लेस इकार व्हिच इज नॉट इंटेंडेड अत्रापि अलोन्त्यस्य इत्यनेन अंतादेशः एव भवति अकारः यतोहि अत्र इको गुण वृद्धि इति परिभाषायाः प्रवृत्तिः न भवत्येव गुणः इति विधानाभावात् गुण इत्युच्चार्य विधानाभावात् परिभाषा न प्रवर्तते अन्तादेशः अकारः इद अ अम् अथवा गुणे इति पररूपे इद अम् इत्यस्ति अमिपूर्वः इत्यनेन पूर्वरूपे इदम् दश्च इत्यनेन दकारस्य मकारादेशे इमम् इति रूपम् सो इन् बोथ् दीस् केसेस् इन् केसेस् लैक् दिव औत् इवन् द औकार इस् वृद्धि वि डु नाट् आपरेट् द परिभाषा इन् तदादीनामः इवन् इफ् अकार इस् गुण वि डु नाट् आपरेट् द परिभाषा The paribhasha operates only where the sutra says there is guna or there is vriddhi. Guna vriddhi shabdabhyam yatra guna vriddhi vidhiyete. Tatra ikaha iti shashtyantam padam upatishthate. Okay, so the first part is clear. Guna vriddhi shabdabhyam yatra guna vriddhi vidhiyete. Ikaha iti shashtyantam padam upatishthate iti sutra saha. He does not say ikaha sthane bhavataha. He says, Ikaha is a shashtyanta word. So the word itself will go and sit there. Okay. In the sutratha, when you are doing the sutratha, sutramasti. So sutrasthani padani santi, anuvrutya kanichana padani labhyante, paribhashaya kanichana padani labhyante. Okay. So he says, this paribhasha will provide the shashtyanta word ikaha. T to the sutra. The sutra will include this in the sutra artha, and then the sutra will be interpreted. Okay, we do not directly say ikahasthane bhavati. Okay, why? So there is a reason. Shashtyantam, shashtyantam padam upatishtate iti. Okay. Sutre shashtyantasya anukaranat shabdaswarupa parataya napumsakat sor luk iti bhavaha. So in sutra it is not shashtyanta. Iko gunavriddhi ityatra ikaha iti yat shruyate tad vastutaha prathamantam. That is, it is a anukarana of the shashtyanta word ikaha. So when you are you say anukarana is when you are imitating something else. Okay. Say for example, gavityayamaha ityasti, go iti ayamaha. He said go. Okay. It is within quotes. If you put it in English, it will be, you will put quotes around it. Okay. So that is where you are exactly phrasing something. Okay. It is not your own word, but you are imitating something else. So he may, here in this sutra, the ikaha should be in quotes. So gunavriddhi shabdabhyam yatra gunavriddhi vidhiyate tatra ikaha. So the word ikaha will be added on to the sutra. That is all. Okay. So what does that word mean? The interpretation will come later. Okay. So sutre shashthantasya anukaranat. It is an anukarana of shashthanta. Okay. So shabdaswarupa parataya. So it means the word ikaha. So ikaha sthane bhavati ityarthahana. In generally, if the word is in Shashtyanta, we have the Shashti Sthane Yoga. But here, we are not interpreting the Shashtyanta. We are just saying that the Shashtyanta word called Ikaha will be added there. Okay, Shabdaswarupa Parataya Napumsakat Sorluk. So in this Parivhasha, the Bhashyakara discusses a lot. And there is the final Siddhanta is called Padopasthiti Pakshaha. That is why padam upatishthate iti uktam dikshitehi. Padopasthiti pakshaha nama ikaha iti padam tatra upatishthate iti. So yatra yatra sutre gunaha vriddhihi iti vidhiyate tatra tatra ikaha iti shashtyantam padam upatishthate. So you can see the quotes. So the ikaha is what is being anukarana there. So for example, if you have mider gunaha, midehe gunaha iti padadvayam sutre drishyate. Angasya ityadhikarahasti. Shashtadhyayasya chatarthapadadarabhya saptamadhyaya parisamapti paryantam. So this comes under the angadhikara. So angasya, the word is there. So then, by this sutra, ipogunavriddhi, the word ikaha comes and sits here. Okay. Padaha padam upatishthate. The word comes here. So we are not interpreting anything else. Now we have different words of the sutra. We combine them and derive the sutrartha. Similarly, sarvadhatuka ardhadhatuka yoho iti sutram asti. Sarvadhatuka ardhadhatuka yoho iti ekameva padam sutre shruyate. Gunaha iti anuvartate. Mider gunaha ityataha gunaha ityasya anuvrittihi. Angasya ityadhikaraha. Ikaha iti padam agachati. So, paribhasha balat ikaha iti padam atra agachati. So, this is how the paribhasha operates. Everywhere it brings in a word ikaha. Wherever it hears gunaha or vriddhihi, it brings in the word ikaha. Okay. So idanim iko guna vriddhi iti shab iti sutre ikas iti pratipadikam. Okay. So that is the shashti of ika and the ngas pratyaya of shashti. So tasya prathamanta nirdeshaha. So we are doing a prathama vibhakti on that word. For example, ramaha iti. When you say ramaha iti, it means the word ramaha. Okay. So similarly hatra ikaha iti. So ikas iti pratipadikasya prathamanta nirdeshaha. So ikas su. Whenever you are telling a particular word, you have to add su pratyaya to it. Apadam na prayunjita. So you add the pratyaya su to ikas. So anukaranatvat napumsakatvam. Samanye napumsakalingam. So swamor napumsaka adityanena sulopaha. Whenever there is a su or next to a napumsaka, it will be deleted. So ikas iti bhavati, rutre visarge ikaha ityeva shruyate. So the key point he is making is, ikaha is not shashtyanta, it is the prathamanta of the word ikas. Okay. So there is a reason we will see in the next thing, where you just do not say gunavriddhi ikaha sthane bhavataha. Even though finally that is the meaning which appears, it cannot directly say that the gunavriddhi ikaha sthane bhavataha. Okay, because there are other words of the sutra which have to be joined with this. the ikaha will associate itself with other words of the sutra and then be interpreted. Okay, you cannot directly say gunaha ikaha sthane bhavati. Atayeva ikaha iti shashtyantasya anukaranam prathamantaha sohu luk. Is this clear so far? Anybody has any questions or doubts?
Samyaji.
Yes.
In the Prathama Vritti, how come it is clearly saying that it is Ikasasthane Bhavata Ittasa?
This is the Prathama Vritti.
And also it says, Ikaha iti Tashkyantam Padam Upadishtitam Prashtavyam.
That's what he tells clearly now. Shashtyantam padam upasthitam rashtavyam. So the sutra says the word ikaha, the shashtyanta word ikaha goes and associates itself along with the sutra.
So it is shashtyantam and not prathama, right?
No, no, no. It is the anukarana of shashtyanta. That is what he is saying. The word ikaha, it does not mean, see, if you directly have a shashtyanta, it means the sutra will directly say that the gunavriddhi is in the place of ikaha, which is not in the place of ik. Okay? So, which is not intended here. That is not the intended meaning. That is why he also says, no, ikaha iti shashtyantam padam upasthitam drashtavyam. So, wherever you go, in a vidhi sutra, wherever you hear vriddhi or guna, you add on a shashtyanta word ikaha. Say if there is mideher gunaha, midehe gunaha ityasti angasya ityadhikaraha ikaha iti yojyate. So before you create the sutratha, you should first understand that how do we get a sutratha out of any sutra. So initially there are words in the sutra, then there are words which you get by anuvritti, there are words which you get by adhikara, and then there are words which you get by the paribhasha. Okay, initially you have all these separate words. Then you join the words as it suits. And then you derive the sutratha. Because one word might be an adjective of the other and so on. So there are many different possibilities which happen. Okay, you cannot directly say that guna and vriddhi replace ik. Okay, that is not the meaning. You will see in the next coming slides and how midher gunaha is interpreted, yes. How sarvadhatuka arthadhatuka yohu is interpreted. Okay.
In the Hindi bhasha, of course, he says exactly what you have been saying. The sutra may iti padasa adhyaha
ikaha iti. That is what it means whenever you have anukarana. Okay. So ramaha iti vadati. It does not mean you are saying ramaha. It means you are imitating somebody who said Ramaha. You can also say Ramam iti vadati. So iti indicates that anukarana. Okay. So anukarana can either be indicated by iti or not. Okay. So here there is no iti karana. That is why he is clarifying that there should be an iti. That is what he means by the prathamanta. Okay.
But the thing though, ikaha is shashtyantam.
Ikaha is shashtyantam. In a sutra where, in a vidhi sutra, when you are applying it to a vidhi sutra, it is shashtyanta. Okay? Not in this sutra, in this particular sutra. Don't worry, it will become clear once we go ahead. Okay? So don't worry about it, it is not. Okay?
In Prathama Vritti, in Vibhakti Vibhagaha,
ikaha iti, he takes the adhyahara of iti. Dikshita simply says it is you add the prathama and then you delete it. Both of them will result in the same. Okay. So it means that it you are not directly interpreting ikaha here. Okay. I mean, if there is directly Shashti Vibhakti in a sutra, we always apply Shashti Sthane Yoga and say ikaha sthane bhavati. But here you do not interpret ikaha in this sutra. In this sutra, ikaha just means the word ikaha. Okay? Ikaha iti padam ityeva arthaha. Ikaha sthane ityarthaha na bhavati. So it is only dealing with the word ikaha. it will supply the word ikaha, which is shashtyanta, to any sutra which carries guna or vriddhi. Yatra yatra gunaha iti shruyate, tatra tatra anaya paribhashaya ikaha iti shabdaha yojyate. Yatra yatra vriddhihi iti shruyate, tatra tatra anaya paribhashaya ikaha iti yojyate. Okay. So then that word will interact with other words of the sutra and then it is interpreted. Okay. So why? Because we'll see. Tatcha. Yes, there is a question from Yogesh.
Somya ji, ikasiti uchyate khalu, ikaha ikasi ikamsi. इत्युक्ते तत्र षष्ठ्यन्तस्य अनुकरणम् इति अस्माभिः मन्तव्यम् इकः इति प्रथमान्तम् इति परन्तु इति प्रत्याहारः अस्ति तर्हि सः ककारान्तः शब्दः अङ्गीक्रियते तर्हि भुवृत्शब्दवस्तस्य गतिर्भवति इकौ इकः तर्हि पुनः षष्ठ्यन्तमेव अर्थः आयाति तर्हि किमर्थं तथा अस्ति इति प्रश्नः
इक् शब्दस्य षष्ठ्यन्तम् इकः इति ओके सो द इकः इस् द षष्ठी आफ् इक्
नौ तर्हि प्रत्याहारे तु इक् इत्युच्यते इक् इकौ इकः इकम् इकौ इकः तर्हि पञ्चम्यन्तं षष्ठ्यन्तं च इति उभयमपि
इकः इत्येव इकः इति षष्ठ्यन्तं पदम् इत्येव उच्यते अत्रापि इकः इति षष्ठ्यन्तमेव इक् इति प्रत्याहारस्य षष्ठ्यन्तम् इकः इति
नैव वस्तुतः अहमपि तथैव पूर्वं ज्ञातवान् आसम् मद्बुद्ध्या परन्तु पुनः व्याख्याने इकस् इति शब्दं सकारान्तत्वेन स्वीकृत्य पुनः इकः इकसि इकांसि पुनः इकसः इति भवेत् परन्तु इकः इति षष्ठ्यन्तम् इति व्याख्यायते अतः
किं किं न न न न तथा न व्याख्यायते
इकः इकसि इकांसि इति यदि शब्दं चालयामः
दट् इस् फार् द वर्ड् इकस् द वर्ड् इकस् यु आर् टेकिङ्ग् नौ द षष्ठ्यन्त फार्म् आस् द प्रातिपदिक यु आर् रेफरिङ्ग् टु द वर्ड् ओके यु आर् नाट् रेफरिङ्ग् टु द इक् प्रत्याहार अट् आल् हियर् इट् जस्ट् मीन्स् द वर्ड् इकः विच् इस् षष्ठ्यन्त ओके सो वेन् यु रेफर् टु इट् एस् अ वर्ड् नौ द प्रातिपदिक इस् इकस् इकस् इस् द षष्ठ्यन्त फार्म् आफ् इक् ओके
परन्तु इति प्रातिपदिकत्वेन अस्वीकृत्य किमर्थम् इकस् इति स्वीकृतम् इति प्रश्नः
षष्ठ्यन्तमेव प्रातिपदिकत्वेन स्वीक्रियते फार् एक्साम्पल् इफ् यु आर् सेयिङ्ग् रामस्य इति अब्रवीत् ही सेड् रामस्य सो रामस्य इस् षष्ठ्यन्त आफ् राम So, Ramasya iti abravit means he said
Ramasya.
Satyam, if you use the iti, but you can also say Ramasya abravit. Okay? So, it's the same intent. Ramasya iti abravit. Ittyeva arthe, Ramasya abravit. If you put it in English, you will put it in quotes. Okay? Ramasya abravit means he said Ramasya. Okay? Now, what he said...
Tattu aham avagatva...
रामस्य इति प्रातिपदिकं श्रूयतां तत्र रामस्य इति प्रातिपदिकं तस्मात् सुप्रत्ययः क्रियते बिकास् इन् युर् डूयिङ्ग् ए पदस्य अनुकरण सो आन् दट् पद वट् एवर् इस् द पद वट् एवर् इस् विभक्ति यु एड् अनदर् प्रत्यय विच् इस् अ सुप्रत्यय सो रामस्य इति प्रातिपदिकं सो राम इति प्रातिपदिकं न सो सिमिलर्ली अत्र इकः So, ikaha, the visarga is, the pratyaya is ikas. Okay, ika ityasmat, nas pratyaya, shashti vibhaktav kriyate. Atahatra, ikas iti pratipadikam. Shashchantam eva pratipadikatvena svikriyate. Okay. So, let's complete this and maybe come back to this if it is not clear. And don't worry if it is not clear.
Sure, sure. We'll ask you by phone.
No problem. You ask it directly here because others will also benefit from your questions. But, Tachya, sambhavati samanathikal nedanim kimayatam yatra yatra sutre gunaha iti vriddhihi iti vashruyate tatra tatra ikaha iti padam yojyate upatishtate तच्च नाम सः इक्शब्दः सम्भवति सामानाधिकरण्ये इगन्तस्य अङ्गस्य इत्यादि क्रमेण सम्बध्यते दिस् इस् द की पॉइंट इकः विल् नाट् आपरेट् बै इट्सेल्फ It will not just say ikahasthane. It will associate itself with other words of the sutra. Okay. For example, sarvadhatuka ardhadhatuka yoho iti sutram asti. Sutre sarvadhatuka ardhadhatuka yoho iti ekameva padam shruyate. Gunaha iti anuvrittya labhyate. From midair gunaha, we have the anuvritti of gunaha. There is adhikara of angasya. And there is ikaha, the word ikaha which was brought in by the paribhasha, iko gunavriddhi. Now, to derive the sutrartha, you relate all these to each other. Okay. So, sarvadhatuka ardhadhatuka yoho is saptami, saptami dvivachana. Sarvadhatuke ardhadhatuke cha parataha, when followed by a sarvadhatuka ardhadhatuka. Gunaha bhavati, guna is prathama, it means there is guna. Now, there are two things in shashti. Okay. Angasya ityasti, ikaha ityapi shashti asti. Shashti sthane yoga ityuchyate. Kasya angasya gunahava, ikaha gunahava. Is the guna for ikaha, that is ik, or is the guna for anga? Is a question. So sambhavati samanadhikaranye. So when both things refer to the same, we call it as the samanadhikaranya. There is ikaha and angasya. Upayam api shashtyantam. There is samanadhikaranya. Both of them refer to the same. Ataha kim kriyate, yena vidhis tadantasya. Visheshanam tadantasya samnyasyat ityuktatvat ikaha iti angasya visheshanam. Okay. So igantasya angasya gunahasyat sarvadhatuka ardhadhatuka yoho. So ikaha is treated as a visheshana to anga. And we derive the meaning igantasya angasya. Ataha sutrarthaha kaha igantasya angasya gunahasyat sarvadhatuka ardhadhatuka yoho parayoho. Then anga which ends in ik will have guna when followed by sarvadhatuka and ardhadhatuka. Okay, so this is the meaning we derive when the word ikaha interacts with angasya. That is why the paribhasha is just providing the word ikaha. What happens if you just say directly iko gunavriddhi ityanena gunavriddhi ikaha sthane bhavataha. If you directly say there, if you don't see, the way we are interpreting here is the paribhasha will just add on the word ikaha. The word ikaha will then interact with other words and then the final sutra is derived. If you directly say ikaha sthane bhavati, then so sarvadhatuka ardhadhatuka yoho parayoho angasya gunaha bhavati. So any anga will get guna when followed by sarvadhatuka ardhadhatuka. So the ik, if there is an ik in the guna, then it will get ik in the anga, then it will get guna. So that will be the meaning which is derived. Igantasya angasya ityarthaha nalabhyate. So the guna here is intended for an anga which ends in ik, which happens when ik is a visheshana for anga and we use tadanta vidhi. Igantasya angasya. Okay. So for this they say padopasthitihi. You add the word ik, allow it to interact with others and then derive the meaning. But what is happening in midair gunaha or mridair vriddhihi? So midair gunaha mridair vriddhihi ityadavutu samanadhikaranya asambhavat. Since it is impossible to have samanadhikaranya, midi mridyohu avayavasya ikaha iti sambadhyate. So you have midair gunaha, midehe gunaha ityasti, atrape angasya ityasti, ikaha ityasti. Okay, so you have everything here. Now, so can we do igantasya angasya here? If there is samanadhikaranya, that is visheshanam visheshya. Wherever there is samanadhikaranya, one is a visheshana, one is a visheshya. If you have visheshana visheshya, you have tadanta vidhi. So can we interpret this sutra in the same way? Yatha purvatra igantasya angasya gunahasyat sarvadhatuka ardhadhatuka yoho idyuktam. Tatra igantasya angasya. Midehe igantasya angasya gunahasyat iti vaktum shakyateva. Can we say the anga of mid, which is iganta, will get guna? So when mid is iganta, when the anga of mid ends in an ik letter, is it possible? The anga of mid always ends in dakara. It does not anywhere end with ikara, right? So igantasya angasya iti atra vaktum na shakyate asambhavat, because the anga of mid is never iganta. Igantasya angasya iti vaktum na shakyate. Ataha kim kriyate? Igantasya mideh rangasya iti arthe krute asambhavaha. Ataha midehe avayavasya ikaha. So here we say that ik iganta iti nochyate. तदवयवः षष्ठी हेज़् डिफरेंट मीनिंग्स ओके सो स्थाने इत्यर्थः भवति अवयव षष्ठी इति उच्यते सो एन इक विच इज पार्ट ऑफ द अंग ऑफ मिद सो यत्र मिद धातोः अंगे इक वर्णः अस्ति तस्य गुणः सो द इकार विल गेट गुण इवन दो इट इज नॉट एट द एंड वी हैव गुण फॉर द इकार So the ikaha is interpreted differently in different ways. Okay, that is why we cannot directly interpret as ikaha sthane in iko guna vriddhi. We say that it just introduces the word ikaha in all sutras. So depending on the sutra, the word ikaha is interpreted in different ways. Okay, so either it can go as a visheshana to others or it can be the visheshya. Okay. सो पूर्वत्र इगन्तस्य अंगस्य गुणः इत्यर्थः कृतः अत्र तु मिदेः अंगस्य अवयवस्य इकः सो इक विच इज पार्ट ऑफ द अंग विल गेट गुण ओके सो दीस टू लाइन्स आर यू ओके विद इट तच्च संभवति सामानाधिकरण्ये इगन्तस्य अंगस्य इत्यादि क्रमेण संबध्यते यत्र सामानाधिकरण्यं संभवति तत्र इगन्तस्य अंगस्य इत्यादि क्रमेण संबध्यते मिदेर्गुणः मृदेर्वृद्धिः इत्यादौ तु सामानाधिकरण्ये असंभवात् मिदि मृद्योः अवयवस्य इकः इति संबध्यते मिदेर्गुणः इट इज द विशेष्य बिकॉज वी आर डायरेक्टली सेइंग इकः गुणः ओके So in sarvadhatuka ardhadhatuka yohu it is a visheshana. We are saying igantasya angasya gunaha. The anga is getting guna. The anga also happens to be iganta. Okay. Whereas in this we are directly saying ikaha gunaha. So it is a visheshya here and a visheshana in the other case. Okay, so why do we need the meaning of igantasya angasya? Okay, everywhere avayavasya. If you just say avayavasya ikaha gunaha, say for example, there is bhu dhatu. Okay, bhu dhatu ukarahasti saha. When you are doing bhu a, that is also an anga. So iganta anga, so you get guna, it becomes bhavati. Okay. So now, if there is a dhatu where the ik is not at the anga, say for example, there is a dhatu like peed, okay, peed dhatu ho, tasmat tasmanchit pratyaye pare, should the sutra operate here? Okay, this is not iganta, right? Peed iti na igantaha, okay? It is not iganta, but there is still ik. If you don't say igantasya angasya, even here we have to operate sarvadhatuka ardhadhatukayoho, which is not intended. यत्र इक भवति सत अन्ते भवति तत्रैव गुणः इष्यते इफ यू जस्ट से अवयवस्य अंगावयवस्य इकः सो इवन देयर यू वुड हैव टू ऑपरेट सर्वधातुक अर्धधातुकयोः व्हिच इज अनिष्ट सो सर्वधातुक अर्धधातुकयोः ऑपरेट्स ओनली वेयर द अंग इज इगन्त एंड्स इन इक नॉट जस्ट कैरी इक एनीवेयर एल्स Any other questions? Yattu ikayeva sthane staha iti sraja vyakhyatam. Yaccha tattika akrita uktam aniyama prasange niyamartham idam ityadi. Tatsarvam bhashya virodhad upekshyam. Okay, so he goes on to the Pracham Matam. Pracha here refers to again the Prakriya Kaumarikara. Ramachandra Bhatta. Tena Kimuktam. Gunavriddhi ikayeva sthane staha. So this is what the meaning which we also thought initially, right? So a guna or vriddhi will always be replaced ik. Okay. So ikayeva sthane staha iti pracha vyakhyatam. यच्च तट्टीका कृता उक्तम अनियम प्रसंगे नियमार्थम इदम् फॉर एग्जांपल यू हैव अ केस फॉर एग्जांपल सार्वधातुक अर्धधातुकयोः तत्र गुणः विधीयते, तत्र गुणः अन्त्यस्य भवति इत्युच्यते. सो अन्त्यस्य इकः अनिकश्च गुणवृद्ध्योः प्राप्तयोः. द एण्डिङ्ग् लेटर् मैट् ईदर् बि इक् आर् बि अनिक्, नाट् इक्. सो इफ् वि जस्ट् अप्लै अलोन्त्यस्य, द जनरल् रूल् विच् डिटर्मिन्स् आदेश इस् अलोन्त्यस्य. षष्ठी निर्दिष्टस्य अन्त्यस्य अल आदेशः स्यात्. सो इवन् इन् मिदेर् गुणः इफ् यु डोण्ट् अप्लै द परिभाषा अन्त्यस्य भवति इत्युच्यते. सो देर् इस् एन् अनियम, there is no specification there what the final letter has to be. So it can be ik, it can be something else. So aniyame niyamam ha kriyate ikah eva sthane bhavatah, gunavriddhi can be only in case of ik. Okay, so antyasya ikah anikashcha gunavriddhyoho praptayoho ikah eva gunavriddhi bhavatah iti niyamah, ikah eva sthane stah iti pracha vyakhyatam, prakriya kaumudyam vyakhyayate. तट्टीका कृता उक्तम् अनियम प्रसंगे नियमार्थमिदम्, तदेव एनी परिभाषा इस् अनियमे नियमकारिणी परिभाषा. तत्सर्वं भाष्य विरोधाद् उपेक्ष्यम्, इट इज द डायरेक्टली गोस् अगेन्स्ट् द भाष्य. तच्छेषपक्षं दोषयित्वा पदोपस्थितिपक्षस्यैव भाष्ये समर्थितत्वात् इत्याहुः. वाट् डस् द भाष्यकार डू? भाष्यकार has two, three pakshas which he explores here. He calls it the tachesha, tadapavada and padopasthiti. So how he explores and how you have to interrelate these two paribhashas. There is a paribhasha alontyasya, right? So if there is an adesha, it will be for the antya. And now there is a paribhasha which is iko gunavriddhi, which says gunavriddhi ikaha. So what is the relation between these two? Is iko gunavriddhi an apavada to alontyasya? Does it mean it will overrule alontyasya? Or you first apply alontyasya and you say antyasya bhavati, and then you apply iko gunavriddhi, say antyasya ikaha. So if there is an ikaha at the end, you apply iko gunavriddhi. Or is it that it does not interpret? It just says ikaha, you add the word ikaha. So there are three options which the bhashyakara explores. The first option is that iko gunavriddhi is an apavada to alontyasya. So alontyasya does not operate at all. Wherever there is guna or vriddhi, you just do it for ik. Okay, is one option. So then there is a second option which is called tachesha, which means you first apply alontyasya and you get the meaning antyasya alaha bhavati, antyasya bhavati, that the adesha guna or vriddhi will replace the final letter. And then you bring in ika guna vriddhi and say it will replace only if the final letter is ik. Okay, so that is the second option. And the third option is padopasthiti paksha. That is, it does not interpret, it does not either overrule alontyasya or operate after it. It just brings in the word ikaha. Okay, so that can be interpreted as per the situation. So there are, those are the three pakshas which the bhashyakara analyzes, and he finally says it is a padopasthiti paksha. So tachesha paksham dushayitva padopasthiti pakshasyaiva bhashye samarthitatvat. So tacheshaha nama alontyasya ityasya sheshaha, tat tasya sheshaha, tasya nama alontyasya iti sutrasya sheshaha nama atra visheshanam ityartha svikriyate, which means we first do alontyasya, alontyasya iti pravartya tataha tad visheshanatvena iko gunavriddhi, which means you operate both of these. You operate alontyasya and operate iko gunavriddhi as a visheshana to it, which means gunavriddhi antyasya ikaha bhavataha. So if there is antyasya bhavataha, ikaha bhavataha. So it will be for the end when that ending letter is ik. Okay? So if you take this interpretation, that is what he means, ikaha eva sthane staha ityukte, antyasya ikaha anikashcha praptayohu. So if you just operate alontyasya, it will say that the vriddhi can be the ending letter, whatever the letter is. So then the iko guna vriddhi states that it will operate only if the ending letter is ik, which means the sutras can operate if the anga ends in ik and not if it is in between. So in this case, mider gunaha, how do you apply this to mider gunaha? You have mider gunaha. If you apply alontyasya, it says the final letter will get guna. And then you add antyasya, it will say there is guna when the final letter is ik. So the final letter is never ik in case of midu. Ataha gunaha bhavitum narhati. Ikarase gunaha na bhavatyeva. So such interpretation is flawed. That is why he says tathyesha paksham dushayitva. He does not accept tathyesha paksha. Padopasthiti pakshasyeva bhashye samarthitatvat. So that is why such interpretations cannot be accepted. Okay. So in some cases, you apply it, I mean, ikaha eva gunaha ityachyate. Kvachittu igantasya angasya ityapi kriyate. You cannot also rule out that. In some cases, we say it is when the anga is iganta, we have guna or vritti. In some cases, we directly say angavayavasya ikaha gunaha vrittihi. So both these can be achieved only when we resort to padopasthiti paksha, which means that the sutra just brings in the word ikaha, and then the interpretation of that ikaha will depend on the context. Okay. So bhashye tadeva uktam tachesha paksham dushayitva padopasthiti pakshasyeva bhashye samarthitatvat ityahuhu. So ataeva prachayaduktam ikaha yavasthanestaha iti bhashya virodhad upekshyam. Saying this, he adds one more. Tachesha pakshepi dushanodharastu shabdakaustubhe svashtikritaha asmabhihi. The bhashyakara says tachesha paksha will not work. He says it is only padopasthiti paksha. Kintu tachesha pakshe api. Even when you interpret it this way, that is you first operate alantyasya and then operate gunam, iko gunavriddhi. So even in that case, dushanodharaha. So there is a problem because this such interpretation will not work with midher gunaha or midher vriddhihi. So he says even in those cases, it has been resolved. Where? Shabdakaustubhe svashtikataha smavihi. Shabdakaustubhaha iti dikshitaihi virachitam mahabhashya vyakhyanam. Dikshita has written a vyakhyana directly on the Mahabhashya in that krama, which is called Shabda Kaustubha. So there he debates if, I mean, he establishes that Tachesha Paksha is also possible. Okay? That is Dikshita's mata, but he does not elaborate on it here. The Bhashya Siddhanta is Padopasthitihi. That is why he has given the Sutrartha as Gunavriddhi Shabdabhyam Yatra Gunavriddhi Vidhiyete Tatra Ikaha Iti Shashchantam Padam Upatishthate. Any questions now? Are things clearer or more confusing?
Ramya ji, Bhashyakara's opinion is not very clear.
Bhashyakara is of the same opinion. What the Dikshita su. Dikshita Sutra is in accordance with the Bhashyakara. So the Bhashyakara states, Ikaha iti shashtyantam padam. Okay. So the word Ikaha should be added on to Sutra. Wherever the Sutra says, Gunaha bhavati, athava vriddhi bhavati. So there you add the word Ikaha. Okay. That is what the Bhashyakara, that is padopasthiti paksha. Padam upatishthate, the word itself is added. See, a word can be interpreted in two different ways. Say, for example, whenever you say ikaha, so it can be interpreted in as a visheshana or a visheshya. Okay? So it is not just one. So based, depending on the context, it can take on both meanings. That is what the Rikshita. So we just directly bring in the word and the interpretation is left to the context. If you directly interpret the word in the sutra, paribhashayam eva yadi ikaha iti shashtyantam iti svikritya, ikaha sthane iti uchyate, then you get only one interpretation, right? You can always, you should always say that ikaha is the visheshana, ikaha sthane bhavati itteva vaktavyam bhavati. Ikaha cannot operate as a visheshana to something else. Okay, so that is why he says, we do not go to the job of interpreting ikaha here. We just say the word ikaha is added. So how do we interpret that word ikaha? It will depend on that particular sutra where it is added on. Okay, so anga and avayava. See, when ikaha is given as a visheshana to anga, okay, ikaha is the visheshana and anga is the vishesha, then we use the tadanta vidhi and say iganta and anga. Okay, both are the same. It has to be anga, and it has to be iganta, ending in ik. It is an anga and it should be ending in ik. Saha arthaha igantasya angasya. But when you reverse it and say angavayavasya ikaha, the ikaha is a part of the anga. It can be at the end, it cannot be at the end. It can be somewhere in the middle. So that is when we say ikaha is the vishesha and we say anga. Angavayavasya ikaha. So that is where angasya and ikaha are, do not have as well, do not have samanadhikaranya. Angasya avayavasya ikaha ityukte. So anga is separate and ikaha is just a part of the anga. But when you say igantasya angasya, there is samanadhikaranya. Iganta is the same as the anga. Anga is iganta and iganta is anga. Last line, which means yes, dikshitar, I mean ikaha yavasthane saha, that is also possible. When you say tachesha paksha is also agreed, which means that is also possible. But the argument is not very convincing. He says midi, he adds one ikara there. He says mider gunaha ityatra, midi, name midehe ikarasya. He directly adds an ikara and says midu ityasya ikarasya gunaha, something like that. So he has some way of bringing it. Yes, that the prakriya kaumali, that artha can also be, can also hold good. But the bhashyakara is, this thing is padopasthiti paksha. Okay. Any other questions? So please go home and if possible listen to this again. I'll repeat this shortly, I mean in the next class, and then we'll go ahead. Dhyayam dhyayam param brahma smaram smaram gurur giraha siddhanta kaumudi vyakhyam kurmah praudhamanoramam. So before we finish this class, there is a test, I think, I mean, most of you have presented the thing. There is one test for the Samya Prakarana, which I'll send across the question paper within this week. So you can take 15 days to answer it, so and mail it. You can either type it out or you can write it and scan and send me the file through email. Okay.